एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। नवरात्रस्य सप्तमे दिवसे अद्य षष्ठ्यां तिथौ देव्यः कात्यायन्यः विशेषतः समुपासना विधीयते। अद्य हि घटस्थापनास्थले कात्यायन्यः देव्यः आह्वानं विधाय षोडशोपचारेण यथाविधि पूजा विधीयते। काष्ठमण्डप उपत्यकायाः गुह्येश्वरी जय बागेश्वरी मैथि देवी कालिकास्थानं कलंकीमाय बंगलामुखी इत्यादीनां देवीनां मन्दिरेषु भक्तजनानां सम्मर्दो वर्तते। देशस्य पलांशुक भगवती मनकामना गढीमाई छिन्नमस्ता पाथिभरा दन्तकाली विन्ध्यवासिनी शैलेश्वरी बड़ी मालिका उग्रतारा भुवनेश्वरी अम्बिकेश्वरी सुपा देउराली बागेश्वरी प्रभृति शुभ मन्दिरेषु दर्शन पूजनार्थं भक्तजनाः सम्प्राप्ताः वर्तन्ते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं निर्वाचनायोगेन गतार्थिक वर्षे सम्पादितानां कार्याणां वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते कार्यक्रमे प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया प्रतिवेदनमिदं राष्ट्रपतेः समक्षं प्रस्तौत्। प्रतिवेदनं गृह्णन् राष्ट्रपतिः पौडेलः गणतन्त्रस्य सुदृढीकरणं देशस्य विकासाय स्थायित्वाय च आधारो स्थिति प्रावोचत्। राष्ट्रपतिः पौडेलः निर्वाचनस्य माध्यमेन जनतया लोकतान्त्रिकाधिकाराणां प्राप्तिम् उपयोगञ्च विधातुं शक्यते इत्येषः लोकतन्त्रस्य सुन्दरः अपरिहार्यश्च पक्षो वर्तते इति धारणाम् अभिव्यनक। ह्य एव राष्ट्रपतेः समक्षं राष्ट्रिय महिला आयोगेन गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे आयोगस्याध्यक्षः कमला पराजुली प्रतिवेदनमिदं राष्ट्रपतेः समक्षं प्रस्तुतवती। तदवसरे प्रतिवेदनं गृह्णन् राष्ट्रपतिः पौडेलः बहुषु प्रयासेषु जायमानेषु सत्सु कतिषुचित् क्षेत्रेषु महिलानाम् उपस्थितेः आशायुक्तत्वेऽपि जनसंख्यायाः अर्धभाग व्याप्तवतो अस्य वर्गस्य अधुनापि अपेक्षाकृतरूपेण निर्णायकस्तरे प्रतिनिधित्वं सन्तोषावहं न विद्यते इति प्रावोचत्। राष्ट्रपतिना रामचन्द्र पौडेलेन सार्वजनिक सेवा प्रसारण सम्बद्धं विधिं संशोधयितुम् एकीकर्तुं च निर्मितं विधेयकं प्रमाणीकृतमस्ति। राष्ट्रपतिः पौडेलः नेपालस्य संविधानस्य त्रयोदशोत्तर शततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण विधेयकमिदं प्रमाणीकृतवान् अस्तीति राष्ट्रपति कार्यालयेन ज्ञापितमस्ति। विधेयकमिदं संघीय संसदः द्वाभ्यामपि सदनाभ्यां पारितीकृत्य प्रमाणीकरणाय राष्ट्रपति समक्षं प्रस्तुतमासीत्। सर्वकारेण जलविप्लव भूस्खलनाभ्यां स्थानीयस्तरेषु सम्भूतायाः क्षतेः मूल्यांकनं विधाय आवश्यकतानुसारेण सहयोगो विधास्यते। मन्त्रिपरिषदः सोमवासरस्य निर्णयान् सार्वजनिकर्तुं ह्य संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ संकटग्रस्तेभ्यो एकोनपञ्चाशत् संख्यातेभ्यो स्थानीय स्तरेभ्योऽपि अधिका संख्या भवतीति क्षतेः मूल्यांकनं विधाय सम्बद्धेभ्य स्थानीय स्तरेभ्य वित्तं प्रेषयितुं सर्वकारेण गृहकार्यं विधीयमानमस्तीति अज्ञापयत्। एवमेव सर्वकारेण अतिरिक्तानि सप्तपञ्चाशत् हिमशिखराणि आरोहणाय उद्घाटितानि सन्ति। पर्यटन प्रवर्धनाय सर्वकारेण अतिरिक्तानि सप्तपञ्चाशत् हिमशिखराणि उद्घाटितानि सन्तीति संचार सूचना प्रविधि मन्त्री गुरूङ अज्ञापयत्। सर्वकारेण कृषि पशुपक्षी विकास मन्त्रालयान्तर्गतानाम् आयोजनानां निकायानां च कृते षट्षष्ट्यधिक द्विशत संख्यातानि राजपत्राङ्कितानि अस्थायिनी पदानि स्वीकृतानि सन्तीति संचार मन्त्री गुरूङ अज्ञापयत्। मन्त्री परिषद उपवेशेन गत विक्रम वर्ष्यं दूरसंचार नियमावली सम्बद्धं दशमं संशोधनं गत विक्रम वर्ष्यां बीजनीय नियमावलीं च स्वीकर्तुं निर्णीतमस्ति। एवमेव उपवेशेन पत्रवाहन व्यवस्था विभागस्य अन्तर्गतानां निकायानां संघटनस्य संरचनायाः पदानां च स्वीकृतिं विधातुं इजिप्ट देशस्य कायरो नगरे आयोक्ष्यमाणे वैश्विक नागर मञ्चे भागं ग्रहीतुं उपप्रधान नगरीय विकास मन्त्रिणे स्वीकृतिं प्रदातुं च निर्णीतमस्तीति सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री गुरूङ अज्ञापयत्। एवमेव सर्वकारेण पूर्वार्थ सचिवस्य रामेश्वर खनालस्य अध्यक्षतायां उच्चस्तरीय आर्थिक क्षेत्र सुधार परामर्श आयोगः संघटितो वर्तते। गृहमन्त्री रमेश लेखकः भाषते प्राकृतिक विपदा पीडितानां जनतानां सहयोगं पुनर्निर्माणं पुनस्थापनां च प्राथमिकतायां संस्थाप्य सर्वकारः अग्रेसरति। सिन्धुपाल्चोक जनपदस्य विपदग्रस्त क्षेत्रस्य ह्य अवलोकनं विदधानः तत्र सम्प्राप्तः गृहमन्त्री लेखकः सहयोगस्य पुनर्निर्माणस्य पुनस्थापनायाः कार्यैस्सह अन्वेषणस्य उद्धारस्य च कार्यमपि सर्वकारेण नैरन्तरेण विधीयते इति प्रावोचत्। सिन्धुपाल्चोक जनपद विपद व्यवस्थापन समितेः उपवेशं सम्बोधयन् गृहमन्त्री लेखकः अधुनापि कतिपय योजनाः जलविप्लव भूस्खलनादि विपदि निपत्य विलुप्ताः सन्तीति तेषाम् अन्वेषणेन सहैव पीडितेभ्यः सहयोगं प्रदातुम् अवरुद्धा अत्यावश्यकीः सेवाः द्रुततया सञ्चालयितुं च सर्वकारः प्रयतमानः अस्तीति अवदत्। प्रधानमन्त्री केपी शर्मा ओली सर्वेऽपि प्राणिनः सुखमिच्छन्ति परं मानवः सम्मानितं सुरक्षितं च जीवनं जीवितुम् इच्छति त्यतः विपन्नतायाः अन्त्यं विधाय विश्वस्य समृद्धेः सुखिनश्च मानवस्य यात्रायै बलं ददाति। प्रधानमन्त्री निवासे ह्य प्राध्यापकेन डॉ तत्तु तिम्सिना इत्यनेन लिखितं समृद्धिको अन्तर्वस्तु नामकं पुस्तकं लोकार्पयन् प्रधानमन्त्री ओली मानवेन सम्मानितस्य सभ्यस्य शान्तस्य च जीवनस्य प्राप्तये प्रयतनीयमिति प्रावोचत्। प्रधानमन्त्री ओली समृद्ध्यर्थं वातावरण संरक्षणाय च ध्यानं देयम् इति अभाषत। पुस्तकस्य लेखकः प्राध्यापक डॉ तिमिल्सिना पुस्तकेऽस्मिन् प्रधानमन्त्रिणा ओलिना अग्रेसारितस्य समृद्धो नेपालः सुखिनो नेपालिनश्चेति राष्ट्रियायाः आकांक्षायाः आलोके हर्षस्य सुखस्य च वैज्ञानिकं विश्लेषणं विहितम् अस्तीति अज्ञापयत्। प्रधानमन्त्रिणः केपी शर्मा ओलिनः समक्षं प्रधानमन्त्री दैवी प्रकोपोद्धार कोषस्य कृते ह्य कर्मचारी संचय कोषेण नेपाल प्रहरी श्रीमती संघेन च सहयोग वित्तं प्रदत्तमस्ति। कोषस्य प्रमुख प्रशासकेन जितेन्द्र धितालेन सहितै संचालक सदस्यै बालुवाटार वर्तिनी प्रधानमन्त्री निवासे 2 कोटि रूप्यकाणि हस्तान्तरितानि सन्ति। एवमेव नेपाल प्रहरी श्रीमती संघस्य अध्यक्षेण लक्ष्मी कुवर इत्यनया 5 लक्ष्याणि 5 सहस्राणि 5 शतानि 5 50 रूप्यकाणि हस्तान्तरितानि सन्ति। धौलागिरी पर्वतारोहणस्य क्रमे दिनद्वयात् विलुप्तानां 5 पर्वतारोहिणां शवाः प्राप्ताः सन्ति। धौलागिरी हिमालयस्य उच्चाधार शिविरात् रविवासरात् विलुप्तानां रूस देशस्य आरोहिणां शवाः ह्य 1,77,000 मीटर परिमितोच्च स्थाने प्राप्ताः वर्तन्ते इति समाचारः।